एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन सर्वकारस्य सचिवेभ्यो जनसम्बद्धायाः सार्वजनिक्याश्च सेवायाः सरलीकरण सहितेषु विषयेषु त्रिंशत् सूत्रीय निर्देशनम् प्रदत्तम् वर्तते। परयो ह्यश्च सिंहप्रसादवर्तिनी प्रधानमन्त्री मन्त्री परिषदा कार्यालय विभिन्नानां मन्त्रालयानां सचिवानां मन्त्रालयगत विवरणस्य श्रवणस्य अनन्तरं प्रधानमन्त्री प्रचण्ड ह्य सचिवान् एवं निर्दिशत्। असौ विकास व्ययस्य न्यूनताया कारणं जिज्ञासमानः नीतिगत स्तरे समस्यायां सत्यं सुधारस्य प्रस्तावमानेतुं सचिवान् अन्वरुणत्। प्रधानमन्त्री प्रचण्ड सेवा प्रवाहस्य सुलभताय सरलीकरणाय च आवश्यकस्य नीतिगत समस्यायाः समाधानस्य दायित्वं ग्रहीतुम् आत्मनः तत्परता स्थिति ब्रुवन् परिणाममुखस्य कार्यसम्पादनस्य कृते कार्यतालिकां निर्माय क्रियाशीलाः भवितुं सचिवं निर्दिष्टवान्। मासाभ्यन्तरे पारपत्रस्य राष्ट्रिय परिचय पत्रस्य यानसञ्चालनानुमति पत्रस्य शिक्षा मन्त्रालयेन प्रदातव्यस्य वैदेशिक अध्ययनानुमति पत्रस्य सर्वकारीय चिकित्सालये रुग्णानाम् उपचारस्य भूशुल्क भूमापन कार्य करार प्रणानां च स्थानेषु सेवाग्राहिणां कृते साम्प्रतमिव पंक्तिबद्धतायाः दुःखस्य निवारणत्वेन कार्याणि सम्पादयितुं निर्देशन् प्रधानमन्त्री प्रचण्ड। भूयोऽपि एतादृश्यामेव अवस्थायां दृष्टायां सत्यं दायित्ववायिभ्य पदाधिकारिभ्यो दण्डनस्य अवस्था सम्भविष्यतीति प्रत्यादिशत्। भ्रष्टाचारस्य नियन्त्रणं निवारणं च सर्वकारस्य प्राथमिक कार्यमस्तीति भाषमाणः प्रधानमन्त्री प्रचण्ड। भ्रष्टाचरणस्य सम्भावितान् निकायान् तादृशी व्यक्तिश्च निरीक्षितुम् अन्तर्गतेषु कार्यालयेषु जायमानाम् अनियमिततां प्रति दायित्वं वोढुं च अन्वरुणत्। प्रधानमन्त्री प्रचण्डः विदेशात् नेपालं प्रत्यागमनक्रमे व्यक्तिगत प्रयोजनाय अनितस्य चलभाषोपकरणस्य सम्बन्धे नागरिकस्तरात् दुःखवेदनयोः प्राप्ति अनन्तरं तत्तत्कालं सम्बोधयितुं निरदिशत। प्रधानमन्त्रिणः इतः पूर्वमेव एतत् सम्बन्धे निर्दिष्टं सदपि तिरुवनन्तराष्ट्रिय विमानस्थलस्य प्रवेश शुल्क कार्यालयस्य कर्मचारिणा सम्प्रत्येव नेपालम् आगताय नेपालिने चलभाषोपकरणस्य आनयनस्य निषेधन सम्बद्ध समाचारः सार्वजनीभूतः आसीत्। प्रधानमन्त्रिणा दाहालेन उप प्रधानार्थ मन्त्री विष्णु पौडेलः एतत् सम्बन्धे आवश्यक व्यवस्थां विधातुं ह्यः पुनः निर्दिष्टोऽस्तीति प्रधानमन्त्रिणः संचार संयोजकः सूर्य किरण शर्मा अज्ञापयत्। प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य नेकपा एमाले दलस्य अध्यक्षस्य केपी शर्मा ओलिनश्च मध्ये मेलवार्ता सम्भूता अस्ति। बालुवाटार वर्तिनी प्रधानमन्त्री निवासे ह्य सम्पन्ने मेलने एतयोर्मध्ये सामयिक राजनीतिः नूतन सत्ता गठबन्धनम् सर्वकारस्य प्रभावकारिता चेति विषयेषु विमृष्टमिति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितमस्ति। एवमेव मेलने सर्वकारस्य न्यूनतम संयुक्त कार्यक्रमाणां च विषये विमृष्टमिति एमाले दलस्य अध्यक्षस्य ओलिनः संचार संयोजकः रामशरण बजगाई अज्ञापयत्। यस आयमेव बालुवाटार वर्तिनी प्रधानमन्त्री निवासे प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डस्य राष्ट्रिय सभायाः अध्यक्षस्य गणेश प्रसाद तिमलसिन्हा विधस्य च मध्ये मेलवार्ता सम्भूता अस्ति। मेलने राष्ट्रिय सभायाः रिक्तस्य उपाध्यक्ष पदस्य रिक्तस्य एकस्य सांसदस्य च निर्वाचनस्य विषये विमृष्टमिति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितमस्ति। एवमेव मेलने अध्यक्ष तिमलसिन्हा राष्ट्रिय सभातः पारितीकृत्य प्रतिनिधि सभायां प्रस्तुत्य च निष्क्रिय पञ्चविधेयकानि पुनः राष्ट्रिय सभायां पञ्जीकार्य अग्रे वर्धयितुं मुस्ताङ जनपदस्य कोरला प्रवेश बिन्दौ प्रवेश शुल्क कार्यालयस्य निर्माणाय आवश्यक वित्तस्य व्यवस्थापनं विधाय पूर्वाधार निर्माणस्य कार्यम् अग्रे वर्धयितुञ्च अनुरुद्धोऽस्ति। नेकपा एकीकृत समाजवादी दलस्य पोलिट ब्यूरो निकायस्य तृतीयेन उपवेशेन सर्वकारे सहभागिताया सर्वकाराय समर्थनस्य वा विषयं निर्णेतुं केन्द्रीय सचिवालयाय दायित्वं प्रदत्तमस्ति। दलाध्यक्षस्य माधव कुमार नेपालस्य अध्यक्षतायां ह्यः परह्यश्च दलस्य केन्द्रीय कार्यालये उपविष्टेन उपवेशेन दलैकतया राजनीतिक मञ्च निर्माणेन च सम्बद्धस्य विषयस्य अधिकारश्च केन्द्रीय सचिवालयाय प्रदत्तोऽस्ति। उपवेशेन तराई क्षेत्रे शीतलहरिया उच्च पर्वतीय क्षेत्रे वर्धितेन शैत्येन च जनजीवनम् प्रभावितमस्तीति निगद्य सहयोगस्य व्यवस्थायै सर्वकारः अभियाजितोऽस्तीति च महासचिवः डाक्टर बेदुराम भूषालः अज्ञापयत्। एवमेव उपवेशेन राष्ट्रे अर्थतन्त्रे सृष्टायाः समस्यायाः समाधानाय प्रभावकारी कार्यम् चालनीयम्, कृषकेभ्यः मलस्य व्यवस्था विधेया, वर्धनशील वृद्धि धनस्य निवेशनकर्तारो विधेहे परिदो आनेयाश्चेति विषयान् सर्वकारः अभियाचितोऽस्तीति महासचिव भूषालः अवोचत्। तत्पूर्वम् उपवेशम् सम्बोधयन् दलाध्यक्षो नेपालः व्यक्ता सन्तोष विषयेषु दलाभ्यन्तरे एव विमृष्टुञ्च नेतृ कार्यकर्तृन् निरदिशत। उपवेशम् सम्बोधयन् अध्यक्षो नेपालः अवोचत् दलस्य समिति प्रणालीम् सुदृढम् विधातुम् सर्वैः नेतृ कार्यकर्तृभिः प्रतिबद्धैर्भाव्यम्। अध्यक्षः नेपालः सामाजिक सञ्जालेषु सञ्चारे च भाषण अनेन एव दलम् क्रान्तिकारी अनुशिष्टञ्च न भवतीति भाषमाण दल पद्धतिः सुदृढीकर्तव्येति प्रत्यपादयत। उपवेशे सर्वैः सदस्यैः धारणाः व्यक्ताः आसन्। जसपा नाम्ना जनता समाजवादी दल नेपालेन शक्तेः सम्मानजनके आवंटने विहिते सर्वकारे सहभागी भवितुम् निर्णीतम् वर्तते। दलस्य ह्य सम्पन्नेन राजनीतिक समितेः उपवेशेन सम्मानजनके प्रतिनिधित्वे सति सर्वकारे सहभागी भवितुम् अन्यथा बहिस्थित्वा समर्थयितुम् निर्णीतम् वर्तते। जसपा दलस्य प्रवक्तुः मनीष सुमन इत्यस्य अनुसारेण सर्वकारस्य नीति कार्यक्रमाणाम् शक्तेः आवंटनस्य च आधारेण सहभागी भवितुम् अन्यथा सर्वकारम् बहिसंस्थाय समर्थयितुम् निर्णीतमस्ति। उपवेशेन विभिन्नैः दलैः संघटनैश्च सह एकतया गठबन्धनस्य च सम्बन्धे एकतायाः गठबन्धनस्य सम्बन्धे वार्ताम् विधातुम् दलस्य कार्यकारी समितेः सदस्यस्य राजेन्द्र श्रेष्ठस्य संयोजकत्वे वार्ता समितिः संघटितास्ति। एवमेव उपवेशेन निर्वाचने अन्तर्घातम् कुर्वताम् संघीय परिषदः केन्द्रीय समितेश्च सदस्यानाम् सम्बन्धे अनुसन्धानाय शिवलाल थापाविदस्य नेतृत्वे पञ्च सदस्यीया समितिश्च संघटिता वर्तते। गृह मन्त्रालयेन सञ्चल्यमानायाः टी20 लीग क्रिकेट क्रीडा प्रतियोगितायाः विषये सामाजिक सञ्जालेषु पत्रिकासु च सार्वजनिक भूतानां समाचाराणां सम्बन्धे तथ्यम् अनुसन्धाय दण्डयितुम् प्रहरी संगठनम् निर्दिष्टम् वर्तते। मन्त्रालयेन ह्यो विज्ञप्तिम् प्रकाश्य उपप्रधान गृहमन्त्रिणः रवि लामिछाने विदस्य निर्देशनानुसारेण क्रीडायाम् अनियमितता विहिता आयोजकः सम्पर्कात् बहिर्भूतः क्रीडकानां पारिश्रमिके अनियमितता कृता चेति समाचाराणां सततम् प्राप्तेः कारणात् एतत् सम्बन्धे आवश्यकम् अनुसन्धानम् विधातुम् प्रहरी संगठनम् निर्दिष्टमस्ति। नेपाली कांग्रेस दलेन प्रतिनिधि सभाया मुख्य सचेतक पदे रमेश लेखकः मनोनितो वर्तते। कांग्रेस दलस्य सभापतिना संसदीय दलस्य नेत्रा च शेरबहादुर देवाभिधेन संसदीय दलस्य संशोधितस्य विधानस्य अनुसारेण लेखक मुख्य सचेतक पदे मनोनितोऽस्ति। यान चालकानुमति पत्रस्य ग्रहणार्थं नागरिकैः षोडव्यायाः समस्यायाः समाधानाय उपप्रधान भौतिक यातायात मन्त्रिणा नारायण काजी श्रेष्ठेन कार्यम् प्रारब्धम् वर्तते। उपप्रधानमन्त्री श्रेष्ठ ह्य ललितपुरस्य एकान्तकुनास्थितम् यातायात कार्यालयम् अन्वगच्छत् निरीक्षत च। तदवसरे असौ सेवाग्राहिभिः साहापि अन्तर्क्रियाम् व्यददात् इति एतदीय स्वकीय सचिवः विजय गौतमः अज्ञापयत। उपप्रधानमन्त्री श्रेष्ठ कार्यालयस्य प्रमुखम् कर्मचारिणश्च नियमानुसारेण कार्याणि सम्पादयितुम् निर्दिशन् अवदत् कस्यामपि वेदनायम् प्राप्तायम् सत्यम् सर्वकारेण दण्ड्यन्ते। इति समाचारः।